इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। प्रधानमंत्री श्री नरेन्द्र मोदी उक्तवान् यत् पश्चिम एशिया संघर्षस्य मध्येऽपि भारतस्य स्थितिः नियन्त्रणे अस्ति। श्रीमोदी ह्यः गुजरातस्य वाव थराड मण्डलस्य नानी इत्यत्र अष्टशतोत्तर नवदशसहस्रकोटि रूप्यकाणां विकास परियोजनानां उद्घाटनम् आधारशिलास्थापनञ्च कृत्वा जनसभां सम्बोधयन्नासीत्। सः प्रोक्तवान् यत् केन्द्रसर्वकारस्य प्रयत्नैः पश्चिम एशिया संघर्षस्य मध्येऽपि देशस्य नागरिकाः न प्रभाविताः।
भारत की हमेशा से बड़ी ताकत रही है, कितना ही कठिन समय क्यों ना आए, मुश्किल के समय हमारा देश एकजुट होकर खड़ा होता है। बीते कुछ समय से आप देख रहे हैं दुनिया के कई देश युद्ध अशांति और अस्थिरता से घिरे हैं। वेस्ट एशिया में जो हालत बने हुई है उनका असर पूरी दुनिया पर है। ऊर्जा जरूरतों की, डीजल पेट्रोल और गैस की दिक्कत पूरी दुनिया में बढ़ गई है। ऐसे संकट में भी भारत ने हालातों को नियंत्रण में बनाए रखा है।
अस्मिन् अवसरे श्रीमोदी अवदत् यत् प्रारब्धाः परियोजनाः सम्पर्कस्य उन्नतिं करिष्यन्ति, क्षेत्रस्य सामाजिक आर्थिक विकासस्य समर्थनञ्च करिष्यन्ति। श्रीमोदिना प्रोक्तं यत् उत्तर गुजरातस्य दीसा इत्यत्र उद्घाटितं वायुसेनास्थानकं पश्चिम भारतस्य राष्ट्रिय सुरक्षायाः दृष्ट्या महत्वपूर्णं वर्तते। अवधेयं यत् एताः विकास परियोजनाः ऊर्जा मार्गः परिवहनं तथा राजमार्गः रेलमार्गः नगरविकासः जलसम्पदः स्वास्थ्यं तथा परिवारकल्याणं पर्यटनं आदिवासी विकास विभागः इत्यादिभिः सह सम्बद्धाः सन्ति। लोकसभायाम् अद्य विदेशीय योगदान संशोधन विधेयकः 20-26 इत्यस्य चर्चा भविष्यति। एषः 20-2000 विदेशीय योगदान अधिनियमस्य संशोधनं करिष्यति। अद्य निम्नसदने जनविश्वास प्रावधान संशोधन विधेयकस्य चर्चा भविष्यति। एतस्य अपराधानाम् अपराध मुक्तीकरणाय तर्कसंगतीकरणाय च कतिपयेषु अधिनियमेषु संशोधनं करिष्यति, यत् जीवनस्य सुगमतायै व्यापार सुलभतायै च विश्वासाधारित शासनम् अधिकं वर्धयिष्यति। राज्यसभायां केन्द्रीय सशस्त्र आरक्षिबलस्य सामान्य प्रशासनस्य विधेयकस्य कार्यक्रमः निर्धारितः अस्ति। जनगणनं 20-27 इत्यस्य प्रथमचरणम् अद्य आरभ्यते। एतत् जनगणनं विश्वस्य बृहत्तमं जनगणनं भविष्यति। प्रथमवारं जनगणनं डिजिटल रूपेण क्रियते, यत्र स्वगणनस्य विकल्पः अपि उपलभ्यते। अद्यारभ्य 15 एप्रिल पर्यन्तं स्वगणना आरभ्यते, तथा च एनडीएमसी क्षेत्रे अंडमान निकोबार द्वीपेषु दिल्ली कंटोनमेंट बोर्ड गोवा कर्नाटक लक्षद्वीप मिजोरम ओडिशा सिक्किम राज्येषु 16 एप्रिल तः 15 मई पर्यन्तं एकमासं यावत् गृहसूचीकरणं आवासगणना च भविष्यति। मध्यप्रदेशः आन्ध्रप्रदेशः अरुणाचलप्रदेशः चण्डीगढः छत्तीसगढः हरियाणा राज्येषु 16 मई तः 30 मई पर्यन्तं गृहसूचीकरणं आवासगणना च भविष्यति। अद्य नूतन वित्तीय वर्षस्य आरम्भेण परिष्काराणां समुच्चयेन सहितं प्रमुख वित्तीय नियम परिवर्तनानि प्रवर्तन्ते। 6 दशकाधिकं पुरातन आयकर विधिः अद्यारभ्य नूतन आयकर विधेयकः 20-25 इत्यनेन पुनः स्थापितं भविष्यति। पुरातन प्रावधानानाम् अपसारणं, जटिल नियमानां सुव्यवस्थितीकरणं, करदातॄणां कृते अनुपालनं बहु सरलञ्च कृत्वा करव्यवस्थां सरलीकर्तुम् एषः विधेयकः निर्मितः वर्तते। ईरान देशस्य इस्लामिक रेवल्यूशन गार्ड्स कोर्प्स आईआरजीसी इत्यनेन 18 प्रमुख अमेरिकी निगमानां कृते उच्च सचेतना दत्ता, यत् तेषां क्षेत्रीय मूल संरचना शत्रुतापूर्ण कार्यक्रमेषु संलग्नतायाः आरोपानाम् अनन्तरं लक्षिता भविष्यति। आईपीएल क्रिकेट क्रीडायां चतुर्थे मेलने गतरात्रौ पंजाब किंग्स दलेन गुजरात टाइटन्स दलं 3 स्तोपकैः पराजितम्। अद्य लखनऊ नगरस्य भारत रत्न श्री अटल बिहारी वाजपेयी एकाना क्रिकेट क्रीडांगणे पंचमे मेलने दिल्ली कैपिटल्स दलं सम्मुखी करिष्यते इति वार्ताः।